विष्णोर्यत् परमं पदम्
कृतः पूरो तदस्य यत् कृपासो
इन्द्रस्य युज्यः सखा
अजायत्
अथ घनपाठः
प्रयच्छद
योते